एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। पश्चिम दिशः वायुना सह अरबसागरात् उत्पन्नायाः न्यूनचापीय जलवायु प्रणाल्याः कारणेन पूर्वे द्युः अद्य च देशस्य विभिन्नेषु स्थानेषु वृष्टिः हिमपातश्च जायमानौ स्तः। वृष्टेः हिमपातस्य च कारणेन हिमालयीय भूभागानाम् उच्च पर्वतीय भूभागानाम् च जनजीवनम् प्रभावितम् अस्ति चेत् धान्य कृषेः प्रवेशनाय तत्परः कृषकाः पीडायाम् वर्तन्ते। मनाङ मुस्ताङ जनपदयोः ह्य अद्य च भीषण वृष्टिः जायमानास्तीति जलवायु वातावरण विज्ञान विभागस्य सूचनाधिकारी दिनकर कायस्थः असूचयत्। सोलुखुम्बु शंखुवासभा दोलखा सिन्धुपाल्चोक रसुवा गोरखा लमजुङ कास्की बागलुङ रूकुम पूर्व रूकुम पश्चिम जाजरकोट दैलेख डोल्पा जनपदानाम् विभिन्नेषु भूभागेषु वृष्ट्या सह हिमपात सम्भूतो स्थिति जलवायु विज्ञान विभागेन ज्ञापितम् वर्तते। गतरात्रौ अपि बागमती गण्डकी कर्णाली प्रदेशानाम् उच्च पर्वतीयेषु हिमालयीयेषु च भूभागेषु भीषण हिमपात वृष्टिश्च सम्भूतेस्त। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य प्रवक्ता शान्ति महत वृष्टि हिमपातश्च जायमानौस्त इत्यतः आवश्यक सावधानताम् अवलम्बितुम् सर्वान् अनुरुद्धवती अस्ति। पूर्वे द्युः सगरमाथा क्षेत्रे प्रातःकालादेव सघन हिमपात सम्भूतः आसीत्। तत्र क्षेत्रे सम्प्रति आसन्न सहस्रत्रयादपि अधिकाः वैदेशिक पर्यटकाः सन्तीति अनुमितम् वर्तते इति सोलुखुम्बु प्रमुख जनपदाधिकारी लीला कुमारी केसी पाण्डे असूचयत्। अत्रान्तरे नेपाली सेनायाः सशस्त्र प्रहरी बलस्य नेपाल प्रहरिणश्च संयुक्त समूहेन हिमालयीय जनपदेषु हिमपाते निपतितानाम् जनानाम् उद्धारः विधीयमानो वर्तते। मनाङ तिलिचो अस्थायी पर्यटक निवासे असहायावस्थायाम् स्थितान् सप्तशतम् पञ्चाशत् च पर्यटकान् उद्धृत्य एते जनाः डिस्याङ ग्रामपालिकायाः नवमवडा क्षेत्रस्य खाङसार स्थानम् आनीताः सन्तीति सशस्त्र प्रहरी बलस्य सहप्रवक्ता शैलेन्द्र थापा असूचयत्। अत्रान्तरे उच्च हिमालयीय क्षेत्रेषु अत्यधिक हिमपातस्य जायमानस्य कारणेन नेपाल पर्वतारोहण संघेन आरोहण दलस्य सदस्याः पदयात्रिणश्च तत्र क्षेत्रे सम्प्रति न गन्तुम् अनुरुद्धाः वर्तन्ते। अद्य कोशी बागमती गण्डकी प्रदेशानाम् उच्च पर्वतीय भूभागेषु हिमालयीय भूभागेषु च कतिपय स्थानेषु मध्यम हिमपातस्य सम्भावना अस्ति। विभागस्य अनुसारेण एतदवधौ देशस्य बागमती कमला कोशी कन्काई नदीषु एतत् सहायक नदीषु च जलस्य प्रवाहस्य वर्धनस्य सम्भावना वर्तते। निर्वाचनस्य वातावरणम् निर्मातुम् सम्बद्धैः पक्षैः सह वार्ताम् विदधता सर्वकारेण प्रथमवारम् राजनीतिक दलैः जेन्जी युवसन्ततेः प्रतिनिधिभिश्च सह विमृक्ष्यते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे अद्य दिवाचतुर्वादनाय सर्वकारेण त्रिपक्षीयोपवेशः आहूतोऽस्ति। संचार सूचना प्रविधि मन्त्री जगदीश खरेला निर्वाचनस्य वातावरणम् निर्मातुम् संयुक्तोपवेशस्य आयोजना विहिता स्थिति असूचयत्। मन्त्री खरेलः निर्वाचनम् सफलीकर्तुम् राजनीतिक दलैः सम्बद्ध पक्षैश्च सह वार्ता जायमाना स्थिति असूचयत्। एतत्पूर्वम् अस्यैव कार्तिक मासस्य चतुर्थे दिवसे सर्वकारस्य राजनीतिक दलानाम् च मध्ये विमर्शनम् सम्भूतम् आसीत्। गृहमन्त्री ओम प्रकाश अरियालः आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्वाचनम् सम्पादयितुम् सुरक्षा व्यवस्थाम् सुदृढाम् विधातुम् च सुरक्षा निकायान् निर्दिशति। महोत्तरी जनपदस्य वर्दीवासवर्तिन्याम् सशस्त्र प्रहरी बलस्य छिन्नमस्ता वाहिन्याम् ह्य आयोजिते सुरक्षोपवेशे गृहमन्त्री अरियालः निर्वाचनम् सफलीकर्तुम् सुरक्षा निकायानाम् महत्वपूर्णा भूमिका भवति इत्यतः उच्च मनोबलेन सुरक्षायाः व्यवस्थापनार्थम् निरदिशत। गृहमन्त्री अरियालः मधेस प्रदेशः सुरक्षायाः दृष्ट्या संवेदनशीलोऽस्ति इत्यतः संवेदनशीलताम् विचार्य सुरक्षा व्यवस्थाम् सुदृढाम् विधातुम् निरदिशत्। निर्वाचन आयोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभायाः सदस्यानां निर्वाचनस्य प्रयोजनाय पर्यवेक्षणस्य इच्छुकानि राष्ट्रियान्तर्राष्ट्रिय संघ संस्थानानि आहूतानि वर्तन्ते। आयोगेन ह्यः विज्ञप्तिं प्रकाश्य पर्यवेक्षणाय अनुमतेः प्राप्त्यर्थं निवेदन प्रदानाय काष्ठमण्डपो उपत्यकायाः कृते निर्वाचन आयोगः अन्य जनपदानां कृते सम्बद्ध प्रदेश निर्वाचन कार्यालयाः जनपद निर्वाचन कार्यालयाश्च निर्धारिताः सन्ति। तत्र गत्वा कार्तिकस्य षड्विंश दिवसस्य अभ्यन्तरे निवेदनं प्रदातुम् आयोगेन अनुरुद्धम् वर्तते। नेकपा माओवादी केन्द्रस्य संयोजक पुष्पकमल दाहाल प्रचण्ड वर्तमानावस्थायां संविधानस्य रक्षायै समुन्नत लोकतन्त्रस्य विकासाय राष्ट्रिय स्वाधीनतायै च सर्वाभि गणतान्त्रिक शक्तिभि एकीभवनस्य आवश्यकता अस्ति इति बलं प्रदत्तवान् वर्तते। या सामाजिक सञ्जालस्य माध्यमेन संयोजक दाहाल देशस्य समक्षं सम्प्रति दृष्टाया जटिलताया जनाकांक्षाया समावयस्य च समस्यानां समाधानाय ऐतिहासिकं दायित्वं दलेषु अस्तीति उक्तवान् वर्तते। नेकपा एमाले दलस्य एकादशतमस्य महाधिवेशनस्य पूर्वकार्यस्य कृते एमाले दलस्य केन्द्रीय सचिवालयस्य उपवेशः सैव कार्तिक मासस्य पञ्चदशे दिवसे वस्ता। उपवेशेन महाधिवेशन सम्बद्धाः विभिन्नाः निर्णयाः विधास्यन्ते। गताश्विन मासस्य ऊनत्रिंश दिवसात् एकत्रिंशं दिवसं यावत् सम्भूतेन एमाले दलस्य केन्द्रीय समितेः उपवेशेन एकादशतमं महाधिवेशनम् आगामिनः मार्गशीर्ष मासस्य सप्तविंशात् दिवसात् एकोनत्रिंशं दिवसं यावत् पोखरा नगरे आयोजयितुं निर्णीतम् आसीत्। दलस्य केन्द्रीय कार्यालयस्य सचिवस्य डाक्टर भीष्म अधिकारिणः अनुसारेण सचिवालयोपवेशेन महाधिवेशनस्य विषये विभिन्नाः निर्णयाः विधास्यन्ते। बाजुरा जनपद चिकित्सालये एकमासात् जीवनजलस्य अत्यधिक अभाव अस्ति। गत आर्थिक वर्षे कृतस्य जीवनजलस्य समाप्तेः पश्चात् नवीनक्रयण प्रक्रियायाः प्रारम्भणाय विलम्बनस्य कारणेन जीवनजलस्य आपूर्ति अवरुद्धा अस्ति। चिकित्सालयस्य सूचनाधिकारिणः नृपराजगिरि इत्यस्य अनुसारेण वर्तमानार्थिकवर्षस्य कृते औषधक्रयण प्रक्रिया अग्रेसारिता सत्यपि जीवनजलस्य आनयनाय एकमासम् अपेक्ष्यते। जीवनजलस्य अभावेन अतिसारस्य विसूचिकायाश्च रोगिभिः आपणेषु नैजौषधालयेषु च क्रयणस्य बाध्यता वर्तते। जुम्ला जनपदवर्तिना मार्गमा शाखा कार्यालयेन कर्णाली राजमार्गस्य अन्तर्गतानां पञ्चानां रुग्णावस्थायाः आयोजनानां निर्माणानुबन्धनं निरस्तीकर्तुं प्रक्रिया अग्रेसारिता अस्ति। कार्यालयेन संविधायाः अनुसारेण कार्यं न कृत्वा दीर्घकालात् असहायावस्थायां स्थितानां पञ्चानां राजमार्गाणां निर्माणानुबन्धनस्य त्रोटनाय विधेः प्रक्रिया अग्रेसारिता अस्ति। जुम्ला मार्ग महाशाखा कार्यालयेन स्वस्य कार्यक्षेत्रस्य अन्तर्गता कालीकोट जनपदस्य चतस्रः मुगु जनपदस्य नाम्नगम गढी मार्ग खण्डस्य एकाचेति कृत्वा पञ्चानां मार्गायोजनानां निर्माणानुबन्धनस्य निरसनाय प्रारब्धायाः प्रक्रियायाः अन्तर्गतं पूर्वेद्यु सार्वजनिक सूचनां प्रकाश्य सम्बद्ध निर्माण व्यवसायीभ्य स्पष्टीकरणाय अवसरः प्रदत्तोऽस्ति इति समाचारः।